मने भगवत कर्णो कथाया श्रुतो सेवायां च भुजो स्मृतो च हृदयम् भूयादृशौ लोचने कृष्णार्थैव मम क्रियास्तु सकला शारीरिकी मानसी दुःसङ्गः वचनापि मास्त्विह विभो देहि त्वमेतान् वरा देहि त्वमेतान् वरा देहि त्वमेतान् वरा